रसोमासोमदच्युतस्रपासेनो मघोराः सुता विदधे अक्रमुः आदीम् धृतस्य योष नो हरिम् हिन्वन्त्यद्रीभिः इन्दुमिन्द्राय भीतये आदीम् हंसो यथा गणम् विश्वस्यावीव सन्मतिम् अहत्यो न गोभिरज्यते उभेशो मागो न दत्तो अर्षसि सीदम् ऋतस्य यो निमा अभिगावो अनोषतयोषाचारमीव प्रियम् अगन्नाजिम् यथा हितम् हस्ते देहिद्युमद्यसो मघमद्भ्यश्च मह्यम् च सनिम् मेधामुतस्रवाः